कञ्चन वसतो प्रत्याचक्षीत तद्व्रतम् तस्माद्ययाकया च विधया बह्वन्नं प्राप्नुयात् आराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुं राधम् मुखतोऽस्मा अन्नगुं राध्यते एतद्वै मद्यतोऽन्नगुं राधम् मद्यतोऽस्मा अन्नगुं राध्यते एतद्वा अन्ततोऽन्नगुं राधम् अन्ततोऽस्मा अन्नगुं राध्यते य एवं वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्युति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते एस्मै कामाः तत्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणपरिमर इत्युपासीत पर्येण म्रियन्ते द्विषन्तः स पत्नाः पर्ये प्रिया आभ्रातृव्याः स यश्चायं पुरुषे यश्चासावादित्ये स एकः स य एवं विद् अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रम्य एतं प्राणमयमात्मानमुपसङ्क्रम्य एतं मनोमयमात्मानमुपसङ्क्रम्य एतं विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नि कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते कृदः कृष्णोकृदः कृष्णोकृत् अहमस्मि प्रथमजारतास्य पूर्वं देवेभ्यो अमृतस्य नापायि यो मा ददाति सै देवमावाह अहमन्नमन्नमदन्तमाद्मि विश्वं भुवनमभ्यभवां सुवर्णज्योतिः य एवं वेद इत्युपनिषत्।